ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। उद्धव उवाच, ततस्सागत्य पुरं स्वपित्रो चिकीर्षया शम्बलदेव संयुतः। निपात्य तुङ्गा त्रिपुयूथनाथं हतं व्यकर्षद्व्यसुमोजसोर्व्यां। सान्दीपने सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरं, तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात्। समाहुता भीष्मककन्यया ये श्रियः सवर्णेन बुभूषयैषाम्। गान्धर्ववृत्त्या मिषतां स्वभागं जर्रे पदं मूर्ध्नि ददत् सुपर्णः। ककुद्मतो विद्धनसो दमित्वा स्वयंवरेनाग्नजितीमुवाह। तद्भग्नमानानपि गृध्यतो ज्ञाञ्जग्नेक्षत शस्त्रभृतश्वशस्त्रैः। प्रियं प्रभुर्ग्राम्यैव प्रियाया विदित्सुरार्च्छद्युतरं यदर्थे। वज्र्याद्रवत्तं सगणोरुषान्तः क्रीडामृगो नूनमयं वधूनां। सुतं मृधेखं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या। आमन्त्रितस्तत्तनया यशेषं दत्त्वा तदन्तः पुरमाविवेश। तत्रारितास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम्। उत्थाय सद्यो जगृहु प्रहर्ष व्रीडानुरागप्रहितावलोकैः। आसां मुहूर्त एकस्मिन्नानागारे सुयोषिताम्। सविधं जगृहे पाणिननुरूपस्वमायया तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः। एकैकस्यां दश दश प्रकृतिर्विभूषया कालमागतसाल्वादीननीकैरुन्धतः पुरम्। अजिघनत् स्वयं दिव्यं स्वपुंसां तेजादिशत्। शम्बरं द्विविधं बाणं मुरं बल्बलमेव च। अन्यांश्चदन्तवक्त्रादीनवधीत् कांश्च घातयत्। अथ ते भ्रातृपुत्राणां पक्षयो पतितान् नृपान्। सचालभू कुरुक्षेत्रं येषामापततां बलैः। सकर्णदुःशासनसौ बलानां कुमन्त्रपाकेन हतश्रियायुषं। सुयोधनं सानुचरं शयानं भग्नोरुमुर्व्यां नननन्द पश्यन्। कियान् भुवोऽयं क्षपितोरुभारो यद्रोण भीष्मार्जुन भीममूलैः। अष्टादशाक्षौहिणिको मदंशैरास्ते बलं दुर्विषहं यदूनां। मिथो यदैषां भविता विवादो मध्वा मदातां रविलोचनानां। नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म। एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजं। नन्दयामास सुहृतः साधूनां वर्त्मदर्शयन्। उत्तरायां धृतः पूर्वोर्वंशः साध्व्यभिमन्युना। स वै द्रौण्यस्त्रसञ्छिन्नः पुनर्भगवता धृतः। अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः। सोऽपिक्ष्मामनुजैरक्षन् रेमे कृष्णमनुव्रतः। भगवानपि विश्वात्मा लोकवेदपथानुगः। कामान्शिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः। स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया चरित्रेणानवद्येन श्रीनिकेतेन चात्मना। इमं लोकममुं चैव रमयन् सुतरां यदून्। रेमे क्षणदया दत्तक्षणस्त्री क्षणसौहृदः। तस्यैवं रममाणस्य संवत्सरगणान् बहून्। गृहमेधेषु योगेषु विरागः समजायत। दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान्। को विश्रम्भेत योगेन योगेश्वरमनुव्रतः। पुर्यां कदाचित् क्रीडद्भिर्यदुभोजकुमारकैः। कोपितामुनयः शेपुर्भगवन्मतकोविदाः। ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः। ययुप्रभासं संवृष्टा रथैर्देव विमोहिताः। तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा। तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः। हिरण्यं रजतं शय्यां वासांश्च जिनकम्बलान्। यानं रथान्निभान् कन्याधरां वृत्तिकरीमपि। अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणं। गोविप्रार्था सव शूराः प्रणेमुर्भुविमूर्धभिः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे तृतीयोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां। यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।